ganapatim tva gananaam gananaam tva ganapatim tva ganapatim ganapatim tva tva ganapatim havamahi havamahi ganapatim tva tva ganapatikum havamahi ganapatikum havamahi havamahi ganapatim ganapatikum havamahi havamahi kavim kavigum havamahi ganapatim ganapatikum havamahi kavim ganapati ganapatim 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 tva tva ganapatim havamahi havamahi ganapatim tva tva ganapatim havamahi ganapatim ganapatim havamahi havamahi ganapatim ganapatim havamahi kavim kavim havamahi ganapatim ganapatim havamahi kavim ganapatim 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 havamahi kavim kavigum havamahi havamahi kavim kavinam kavinam kavigum havamahi havamahi kavinam kavim kavinam kavinam kavim kavinam upamastavastamam upamastavastamam kavinam upamastavastamam kavinam upamastavastamam upamastavastamam kavinam upamastavastamam upamastavastamam indyumasvavaha namam ज्येष्ठाराजं ब्रह्मणां ब्रह्मणां ज्येष्ठाराजं ज्येष्ठाराजं ब्रह्मणां ब्रह्मणो ब्रह्मणोजं ब्रह्मणां ज्येष्ठाराजं ज्येष्ठाराजं ब्रह्मणां ब्रह्मणः ज्येष्ठां ज्येष्ठाराजं ब्रह्मणां ब्रह्मणो ब्रह्मणो ब्रह्मणां ब्रह्मणां ब्रह्मणस्पते परे ब्रह्मणो ब्रह्मणां ब्रह्मणां ब्रह्मणस्पते ब्रह्मणस्पते पते ब्रह्मणो ब्रह्मणस्पते आपते ब्रह्मणो ब्रह्मणस्तथा तथा आपते पटा नूना आपते पटा नः
Om Maha Ganapataye Namaha. He is the river that flows and moves around the boulders of your life. There are no obstacles in life, only the boulders of your river. He is consciousness. He is Maha Ganapataye. He is Maha Ganesh.
Om Maha Ganapataye Namaha. Om Maha Ganapataye.
Thank you.
आपते ब्रह्मनो ब्रह्मणस्पता पता आपते पता आनो न आपते पता आनहा